सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिं
सिद्धिर्भवतु मे सदा
सिद्धिं भवति
सिद्धिर्भवतु मे सदा
आम् सिद्धिर्भवति मे
सदा
सदा क्षम्यतां
चिन्ता मास्तु भगिनि
गुरुभ्यो नमः
समीचीनं भगिनि
नमस्कारः महोदय शुभदा
नमस्कारः भगिनि शुभदा भगिनि नमस्कारः गीताञ्जलि भगिनि नमस्कारः अस्तु तर्हि आरम्भं कर्तुं शक्नुमः सर्वेभ्यो नमः अस्माकं प्रवर्तमानः विषयः आसीत् तत्र विशेषणविशेष्यभावः इति किन्तु तद् कृतवन्तः समापितवन्तः तस्मिन् विषये वयं तत्र किं तत्र शिवराजः अपि आदिल् खान् इति तयोः मध्ये मेलनम् इति तत्र तां कथां पठितवन्तः हा इदानीम् अग्रे गच्छामः तत्र इदानीं तत्र पुटसङ्ख्या अस्ति पेज् 49 तत्र सर्वनामशब्दाः इति नूतनविषयः इदानीम् अस्तु तर्हि तत्र सर्वेषां पार्श्वे पुस्तकम् अस्ति इति मन्ये अतः तत्र पुटसङ्ख्या अस्ति 49 तत्र अस्तु तत्र रघुपतिमहोदय आरम्भं कर्तुम् इच्छति वा महोदय
आं महोदय
भवान् प्रेषितवान् वा महोदय
न भगिनि न तत्र पुस्तकं नास्ति वा भवत्याः पार्श्वे
मम पार्श्वे नास्ति
नास्ति वा इति एकनिमिष भगिनि अस्तु गीताञ्जलि भगिनि भवत्याः पार्श्वे अस्ति वा पुस्तकं
न महोदय अद्य नास्ति
अद्य नास्ति अस्तु अस्तु
मम पार्श्वे अस्ति महोदय
भवत्याः पार्श्वे अस्ति अस्तु एकनिमिषः एकः एकनिमिषः नरेश महोदय भवतः पार्श्वे अस्ति वा पुस्तकम्
आम् मम पार्श्वे अस्ति
अस्तु तर्हि अस्तु समीचीनम् अस्तु एकनिमिषः अहम् एतत् करोमि तत्र एकनिमिषः अस्तु इदानीं तत्र चाट् मध्ये अहं लिङ्क् प्रेषयामि तदस्ति सम्पूर्णगीतासोपनद्वितीयभागस्य प्राप्तवन्तः वा शुभदा भगिनि
सम्पूर्णं पुस्तकमस्ति महोदय
आमामामाम् अतः एव अत्र अत्र स्थापितवान् हा गीताञ्जलि भगिनि प्राप्तवती वा भगिनि अस्तु तर्हि अस्तु रघुपतिमहोदय आरम्भं कर्तुं शक्नुमः इति मन्ये
आम् आं महोदय
अस्तु
गहना कर्मणो गतिः इति सर्वनामशब्दाः एतां कथाम् उच्चैः पठत अवगच्छत च महाभारतयुद्धं परिसमाप्तं भीष्मः शरशय्यायाम् आसीत् सर्वः युद्धपरिसरः गजशवनरजीवानां मृतशरीरैः भूयिष्ठः आसीत् तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः सः अनुजैः सह भीष्मस्य सन्निधिं गतवान् तं नमस्कृत्य उक्तवान् पितामह अस्य सर्वस्य विनाशस्य कारणम् अहमेव ननु भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि
धन्यवादः अस्तु अग्रे सूर्यकुमारी भगिनि
तदा तं सान्त्वयन् सान्त्वयन् भीष्मः अवदत् वत्स अस्य सर्वस्य कारणं त्वं न नैव इमे व्यक्तेः बान्धवाः स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति. किन्तु युधिष्ठिरः समाहितः न अभवत्. तं पुनरपि बोधयन् भीष्मः तस्य निदर्शनरूपेण इमां कार्यम् इमां कथां श्रावितवान्.
पुरा
गौतमी नाम काचित् तपस्विनी महिला आसीत् तस्याः अतिप्रियः एकः एव पुत्रः. कदाचित् कश्चन सर्पः तं पुत्रम् अदशत्. तेन सह बालः अचेतनः जातः. अर्जुनकः नाम व्याधः एतत् दृष्ट्वा झटिति स्नायुपासेन तं
सर्पं स्नायु एकमस्ति भागः स्नायुपाशेन
तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्. उक्तवान् च मातः अयं दुष्टसर्पं दुष्टसर्पः तव पुत्रं मारयत्. किम् अहम् एतम् अग्नौ क्षिपामि. उत्तखण्डशः करवाणि अथवा वद अन्येन केन प्रकारेण एनं दण्डयानि इति.
हा समीचीनं भगिनि. हा अस्तु अग्रे नरेश महोदय.
महोदय तदा गौतमी अवदत् हे सौम्य त्यज इमं सर्पं यतः अस्मिन् सर्पे मारिते अपि मृतः मम पुत्रः जीवितः न भविष्यति इति. किन्तु व्याधः तत् अङ्गीकुर्वन् पुनः अनङ्गीकुर्वन् पुनः पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत. गौतमी तु तस्मै अनुमतिं न अददात्. गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्. हे अर्जुनक अहं बालं अदशं यत् तत्र मम न कोऽपि दोषः. मृत्योः बलात् एव मया इदं कार्यं कृतम् इति. तदा व्याधः अवदत् तथापि अस्य बालस्य दशनं तु त्वया एव कृतम्. अतः त्वं व्यधः वध्यः एव इति. सर्पः अवदत् अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अभवम्. वास्तविकं कारणं तु मृत्युः एव इति.
हा समीचीनं महोदय. अस्तु तत्र किञ्चित् अग्रे अपि पठति वा. तत्र प्रायशः अहं त्वां प्रेरितवान् इति तावत्पर्यन्तम्.
आम् तदा मृत्युः एव तत्र उपस्थितः अभवत्. सः अवदत् हे सर्प नात्र अहं कारणं न वा त्वं कालः अत्र कारणं. यतः तेन प्रेरितः अहं त्वां प्रेरितवान्.
अस्तु महोदय तत्र परिच्छेदं समापयत. अस्तु
परिच्छेदं यथा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च। तेनैव कालेन जगत् इदं सृज्यते वा। एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्यैव न तु मम इति।
हा अस्तु, धन्यवादः महोदय। अस्तु अग्रे शुभदा भगिनी।
तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत्। सः अवदत्, हे व्याध, तस्य बालस्य मरणे न अयं पन्नगः न एषः मृत्युः न वा अहं कारणीभूताः। कारणं तु अनेन कृतं कर्म एव। यदनेन कृतं कर्म तेनायं निधनं गतः, विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्। छायातपौ इव कर्मकर्ता च नित्यसम्बद्धौ भवतः इति। सर्वम् एतत् श्रुत्वा गौतमी अवदत्, मम पुत्रस्य मरणकारणम् एषु न कोऽपि अस्ति। मम पुत्रः स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति। ममापि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत्। अतः कालः मृत्युः च स्वस्थानं गच्छताम्। त्वमपि सर्पम् एव परित्यज्य इति। एतां कथां श्रावयित्वा भीष्मः अकथयत्, राजन्, सर्वेपि स्वकर्मणां फलं प्राप्नुवन्ति इति ज्ञानेन गौतम्याः शोकः परिसमाप्तः। अत्रापि तथैव, त्वया दुर्योधनेन वा न किमपि अपराधम्। सर्वेपि इमे स्वकर्मणः फलम् अनुभवन्ति, अहमपि अनुभवामि। सर्वे कर्मवशाः वयम्, अतः शोकं मा कुरु इति। भीष्मस्य वचनैः युधिष्ठिरः समाहितः अभवत्।
हा अस्तु, धन्यवादः भगिनि। हा अस्तु, तर्हि तत्र कथा इदानीम् अस्ति, तत्र गहना कर्मणः गतिः, कर्मणः गतिः गहना इति। अत्र सर्वनामशब्दाः इति मूलविषयः, तत्र स्थूलक्षरैः सर्वनामशब्दाः लिखिताः सन्ति। तत्र इदानीं तत्र एतावत् एषः सः इति अस्माभिः स्वीकृतम् आसीत्, किन्तु इदानीं तत्र इदं शब्दस्य अयं रूपः, तत्र पुल्लिङ्गरूपः, स्त्रीलिङ्गरूपः, नपुंसकलिङ्गरूपः सर्वम् आयाति इदानीम्। अतः तत्र प्रथमतया तत्र सर्वनामशब्दः पुल्लिङ्गे अपि नपुंसकलिङ्गे अस्ति। अग्रिमे अध्याये तत्र सर्वनामशब्दः स्त्रीलिङ्गे इति तत्र भवति। अस्तु तर्हि, अतः इदानीं इदानीं किं कुर्मः, तत्र कथां पठितवन्तः, किन्तु इदानीं तत्र आरम्भतया किञ्चित् पश्यामः। तत्र गीताञ्जलि भगिनी आरम्भं कर्तुम् इच्छति वा भगिनि?
आं महोदय, प्रयत्नं करोमि।
अस्तु, शोभा भगिनी नमस्कारः।
नमस्ते महोदय, अद्य अहं किञ्चित् कालम् एव श्रोतुमेव शक्नोमि महोदय, सम्यक् वा?
अस्तु अस्तु अस्तु, समीचीनं भगिनि। किन्तु तत्र वयं कुत्र स्मः इति वदामि, तत्र पेज् 49 मध्ये तत्र कथा अस्ति, तत्र स्मः।
अस्तु महोदय, धन्यवादः।
अस्तु अस्तु भगिनि, अस्तु गीताञ्जलि भगिनि।
आं महोदय, गहना कर्मणो गतिः, सर्वनामशब्दाः, एतां कथाम् उच्चैः पठत अवगच्छत च। महाभारतयुद्धं परिसमाप्तम्। महाभारतयुद्धं तु कर्मपदम्।
तत्र क्रियापदं किम् अस्मिन् वाक्ये?
परिसमाप्तम्।
अस्तु,
परिसमाप्तम्
आसीत्,
आसीत् इति भवति भगिनि, यतोहि तत्र परिसमाप्तं किं भवति, तत्र कीदृशयुद्धम् इत्युक्ते परिसमाप्तं,
परिसमाप्तं युद्धम्
हा इति तत्र विशेषणविशेषभावः, अतः आसीत् इति एव स्वीकरणीयं, न दत्तं किन्तु तदेव भवति क्रियापदम्.
आम् महोदय. महाभारतयुद्धं परिसमाप्तं, भीष्मः शरशय्यायाम् आसीत्. भीष्मः तु कर्तृपदम् आसीत्, पुनः क्रियापदम्. कुत्र आसीत् भीष्मः? कुत्र आसीत् भीष्मः? शरशय्यायां, शर तु बाण, शय्यायाम् इत्युक्ते
यस्मिन् शयनं भवति सा अस्ति शय्या. यस्याः उपरि शयनं कुर्मः,
यस्याः उपरि शयनं कुर्मः इत्युक्ते भीष्मः शरशय्यायाम् उपरि शय्यां,
तत्र शय्यायाम् आसीत्. हा तत्र शर शरेण अथवा शरैः, अनेकाः शराः सन्ति इति कृत्वा तत्र शरैः कृतं शय्या. तस्यां शय्यायां भीष्मः आसीत्.
अन्यथा शराणां शय्यायां,
हा तदपि समीचीनं भगिनि. हा समीचीनं.
सर्वः युद्धपरिसरः गजाश्वरनरजीवनां मृतशरीरैः भूयिष्ठः आसीत्.
तत्र युद्धपरिसरः इति ततः आरम्भं करोतु. तत्र युद्धपरिसरः, युद्धपरिसरः इत्युक्ते कुत्र?
युद्धपरिसरः इत्युक्ते यत्र यत्र युद्धभूमौ अस्ति.
हा युद्धभूमि, या युद्धभूमिः अस्ति तस्याः समीपे, तस्याः समीपे तत्र स्थलानि यानि सन्ति तत्र युद्धपरिसरः इति, अतः तत्र सर्वः युद्धपरिसरः कीदृशः आसीत्?
सम्पूर्णयुद्धभूमि इति न महोदय?
सत्यं भगिनि. हा सत्यं. हा
हा युद्धपरिसरः गजाश्वनरगज,
तत्र तत्र जीवानाम् इति अन्ते अस्ति, किन्तु तस्य पूर्वभागं कीदृशं, तत्र छेदनं करणीयम् अस्ति इत्र. हा
गज अश्व वानर जीवा,
केवलं नर 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 अश्व इति तत्र वकारः आगतम्.
गज
नर गज अश्व नर
नर जीवानां मृतशरीरैः इत्युक्ते ते सर्वे तु मृताः.
तेषां शरीरैः, तेषां शरीरैः,
तेषां सर्वाणां शरीरैः भूयिष्ठ,
सर्वेषां तत्र सर्वनामपदानाम् एषः एव विशिष्ट वैशिष्ट्यम् अस्ति. शाम् इति भवति, रामाणाम् इति अस्ति, किन्तु सर्वेषाम् इति.
क्षम्यता महोदय. मृत शरीरैः भूयिष्ठः इत्युक्ते वर्तते.
हा भूयिष्ठः इत्युक्ते तत्र पूर्णः, तत्र सर्वत्र अस्ति, बहु बहवः शरीराः सन्ति इति. तत्र शरीरैः सम्पूर्णः अस्ति, तत्र कुत्र कुत्र पश्यामः तत्र तत्र शरीरं शरीराणि एव सन्ति तत्र.
भूयिष्ठ इत्युक्ते
पूर्णं, तत्र बहु इति तत्र. तत्र भूयान् भूयान् इति भूयान् इति भूयान् इति पदं जानति वा? भूयान्
भूयान्
हा तादृश तत्र भूयिष्ठः इति.
अस्तु सर्वत्र इत्युक्ते मृतशरीरैः सर्वत्र आसीत्.
हा बहु अस्ति तत्र इति अर्थे. शरीरैः भूयिष्ठः आसीत्, तत्र सर्वत्र शरीराणाम् एव दृश्यः भवति, सर्वत्र शरीराणां केवलं हा तत्र अन्यत् किमपि न दृश्यते, केवलं मृत जीवानां शरीर, तत्र शरीरं वा शरीरः वा कोऽपि स्मरति वा लिङ्गं किम् इति? शरीरम् इति
नपुंसकलिङ्गे चिन्तयामि.
अस्तु अस्तु महोदय, शरीराणि, अतः शरीराणि. अस्तु
अस्तु,
सर्वत्र मृतजीवानां शरीराणि एव दृश्यते, दृश्यन्ते शरीराणि एव दृश्यन्ते. अग्रे
तस्मिन् युद्धे मृतानां,
ओ अग्रे एव अस्ति शरीराणि इति. अस्तु,
तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः. इत्युक्ते तस्मिन् तु सप्तमी अस्ति महोदय, तस्मिन् युद्धे
महाभारतयुद्धे, महाभारतयुद्धे,
महाभारतयुद्धे मृतानां शरीरिणः दृष्ट्वा, इत्युक्ते युधिष्ठिरः तु कर्तृपदं, युधिष्ठिरः शरीराणि दृष्ट्वा चिन्ताकुलः आसीत्, इत्युक्ते मनसि चिन्ताकुलः आसीत् इति.
चिन्ताम् अनुभवन् आसीत्,
चिन्ताम्
अनुभवन् आसीत्. तत्र चिन्ताकुलः कीदृशपदं भवति, लिङ्गं किं तस्य?
चिन्ताकुलः युधिष्ठिरः,
विशेषणं,
विशेषणमस्ति युधिष्ठिरस्य विशेषणम्. इत्युक्ते प्रथम विभक्ति एकवचनरूपम् एव अत्र
अस्ति, समीचीनं. युधिष्ठिरः अपि मृतानाम् इति विभक्ति का तत्र?
मृतानां तु षष्ठी बहुवचन,
बहुवचनं.
शरीराणि दृष्ट्वा, शरीराणि तु कर्मपदं, शरीराणि दृष्ट्वा बहुवचनरूपं. कुत्र दृष्ट्वा? तस्मिन् युद्धे, युद्धे
तत्र, तस्मिन् युद्धे इति इत्युक्ते किम् अभवत्?
तस्मिन् युद्धे युधिष्ठिरः मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् इति.
किन्तु तत्र युद्धे, तस्मिन् युद्धे अपि युधिष्ठिरः, तयोः मध्ये कीदृशसम्बन्धः, सम्बन्धः अस्ति वा?
तस्मिन् तु सप्तमी, तस्मिन्
युद्धे सप्तमी, तत्र तस्मिन् युद्धे युधिष्ठिरः आसीत् चिन्ताकुलः आसीत् इति वा?
आम् महोदय, अपि अन्यथा
न भगिनि, तत्र पश्यतु, तत्र इदानीं तत्र कथायां किं भवति, इदानीं तत्र महाभारतयुद्धं परिसमाप्तम्, इदानीं तु युद्धं नास्ति, युद्धं कृतं खलु. इदानीं तत्र तस्य अनन्तरं, युद्धात्, युद्धस्य अनन्तरं किम् अभवत् इति इदानीं कथा अस्ति,
कथा अस्ति.
अत्र युधिष्ठिरः इदानीं तत्र सः चिन्ताकुलः आसीत्, किन्तु युद्धः, युद्धं परिसमाप्तम् अस्ति.
युद्धं तु अभवत्,
अतः तस्मिन् युद्धे इति अस्ति. तस्मिन् युद्धे इति किम् अस्ति तत्र?
तस्मिन् युद्धभूमौ सर्वत्र,
इदानीं युद्धे इति भूमिना, युद्धभूमिना, केवलं युद्धं यत् जातं तस्य विषयः, युद्धभूमि इति भिन्नविषयः. युद्धभूमि यत्र युद्धं जातं, युद्धं तु तत्र अभवत्, युद्धम् अभवत्, इदानीं तत्र भूमिः एव तिष्ठति, भूमिः अस्ति, किन्तु युद्धम् इदानीं नास्ति. अतः तत्र तस्मिन् युद्धे इति किं भवति? मृतानां, मृताः तत्र सन्ति खलु, मृतानां, मृताः अनेकाः जनाः मृताः. कुत्र मृताः, कस्मिन् सन्दर्भे मृताः? तस्मिन् युद्धे मृताः.
तस्मिन् युद्धे इत्युक्ते
यत् युद्धम् अभवत् तस्मिन् युद्धे,
तस्मिन् युद्धे मृतानां शरीरं,
मृताः जनाः ये सन्ति तेषां शरीराणां शरीराणि, तेषां शरीराणि युधिष्ठिरः पश्यति.
तेषां शरीराणि
युधिष्ठिरः
दृष्ट्वा
चिन्ताकुलः
अभवत्,
चिन्तामग्नः अथवा चिन्ताम् अनुभवत्,
चिन्ताकुलः.
अतः तत्र किं केवलं तत्र डिरेक्ट् सम्बन्धः तत्र तत्र समीपसन्दर्भ सम्बन्धः नास्ति इति वक्तुं शक्नुमः. तत्र मृतानाम् इति पदेन तत्र सम्बन्धः भवति खलु. तस्मिन् युद्धे मृतानाम् इति पदं अस्ति, अतः तत्र युधिष्ठिरेण सम्बन्धः भवति.
शरीराणि दृष्ट्वा कीदृशानि मृतानां शरीराणि दृष्ट्वा
कदा मृतानाम् इत्युक्ते तत्र युद्धे मृतानां,
युद्धे मृतानां
इति. समीचीनं भगिनि, अस्तु अभवत्. अग्रे
सः अनुजैः सह भीष्मस्य सन्निधिं गतवान्. सन्निधिं गतवान् सः इत्युक्ते युधिष्ठिरः अनुजैः सह. अनुजैः तृतीया किमर्थं सः कारणेन सः निमित्तमस्ति. अनुजैः तृतीया अस्ति सः. अनुजैः सह भीष्मस्य सन्निधिं गतवान्. भीष्मस्य सन्निधिम् इत्युक्ते यत्र भीष्मः अस्ति तत्र तस्य सम्मुखं कर्तुं द्वयोः गतवान्.
तत्र सन्निधिम् इत्युक्ते तस्य समीपं, तस्य समीपं भीष्मस्य सम्मुखम् अथवा तत्र भीष्मं द्रष्टुं तस्य समीपं गतवान् अनुजैः सह. सः गतवान्
इत्युक्ते भ्रातृद्वयोः,
न खलु
अनुजैः सह.
किन्तु
द्वयोः तु न जानामि अत्र.
तत्र कति भ्रातरः सन्ति,
कति सह ते गतवान्?
चत्वारः खलु. तत्र युधिष्ठिरः
सर्वे गतवान् वा तु न.
अस्तु, सत्यं. किन्तु यदि वयं किमपि शृण्मः तत्र यदि एता अस्यां परिस्थितौ प्रायशः सर्वे गतवन्तः इति चिन्तनम् इति मन्ः. अतः तत्र सर्वैः अनुजैः इति.
सर्वैः अनुजैः सह भीष्मस्य समीपं गतवन्तः.
न तत्र न ते सर्वे गतवन्तः.
सर्वे
पाण्डवाः
भीष्मस्य समीपं गतवन्तः.
समीचीनं भगिनि. किन्तु यत्र सः इति भवति चेत् तत्र किं भवति? तत्र अनुजैः सः एव गतवान्, किन्तु अन्यः तत्र अपि आगच्छन्ति, किन्तु तत्र साक्षात् क्रियया सम्बन्धः नास्ति, केवलं सः इति पदेन एव सम्बन्धः इति.
सः एव कर्तृपदम् अस्ति.
अतः समीचीनं भगिनि, अस्तु अग्रे.
तं नमस्कृत्य उक्तवान्. तम् इत्युक्ते भीष्मं. भीष्मं नमस्कृत्य उक्तवान् इत्युक्ते ते सर्वै
भीष्माय
नमः इति उक्तवान्
इति उक्तवान् अथवा उक्तवन्तः अस्तु
पितामह इति तु सम्बोधन पितामह अस्य सर्वस्य विनाशस्य कारणम् अहमेव ननु इत्युक्ते अस्य सर्वस्य विनाशस्य इत्युक्ते ते सर्वे विनाशस्य कारणम् अहमेव सर्वस्य विनाशयस्य अस्य सर्वस्य विनाशयस्य कारणम् अहम् एव इत्युक्ते इत्युक्ते अहम् इत्युक्ते तु एकवचन
अयमेव
ननु तु न अत्र अस्ति अहमेव इत्युक्ते युधिष्ठिरः अवदत् इति मन्ये मम कारणेन एव
सर्वं युद्धं जातं तत्र विनाशः यः विनाशः अभवत् तं विनाशं सर्व सः विनाशः तत्र कथम् अभवत् इत्युक्ते मया अहमेव तस्य कारणम्
अहमेव तस्य कारणं तत्
विनाशस्य नाश विनाशः इति तत्र अस्य इति नूतनं पदं तत्र सर्वः तस्मिन् सः तम् इति पूर्वं दृष्टवन्तः किन्तु इदानीं तत्र नूतनपदमस्ति अस्य इत्युक्ते एतस्य एतस्य इति तत्र अभ्यासपुस्तके एव वयं दृष्टवन्तः एतस्य किन्तु अत्र नूतनपदम् अस्ति अस्य नूतनरूपम् अस्य अस्य तत्र अग्रिमे पुटसङ्ख्या 51 मध्ये तत्र इदं शब्दः इति अस्ति तत्र अयम् इमौ इमे तस्य षष्टी एकवचनरूपम् अस्ति अस्य अयम् इत्युक्ते एषः इति अतः तत्र अस्य इत्युक्ते एतस्य हा समीपमेव अतः तत्र विनाश तत्र युद्धभूमौ एव सन्ति इदानीं खलु अतः तत्र हा तत्र अस्य सर्वस्य विनाशस्य कारणम् अहमेव खलु ननु
भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु भवतः अस्याः दुर्दशायाः इत्युक्ते भवतः इत्युक्ते
भीष्मस्य
दुर्दशायाः कारणम् अपि अहं
अहं युधिष्ठिरः वदति सः 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 एव इति समीचीनं तत्र अस्याः स्थाने अन्यत् पदं स्थापितुम् इच्छामश्चेत् किं भवति
अस्याः तु
एतस्याः समीचीनं भगिनि हा तत्र अस्य इत्युक्ते एतस्य अस्याः इत्युक्ते
एतस्याः दुर्दशायाः कारणमपि अहमेव खलु इत्युक्ते अन्य कोऽपि न किन्तु
अहं स्वयमेव कारणम्
अस्ति खलु
अस्मि
खलु न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति न जानामि किं भीष्मं युधिष्ठिरः अवदत् अहं तु न जानामि कीदृशीं गतिं दुर्गतिम् इत्युक्ते सर्वत्र तु दुर्लक्षण एव दृष्ट्वा मम अहं किं प्राप्स्यामि अहं किं कीदृशीं
दुर्गति कीदृशी दुर्गति दुर्गतिः गतिः स्त्रीलिङ्गे अस्ति दुर्गतिः अपि स्त्रीलिङ्गे अस्ति अतः कीदृशी दुर्गतिः इदानीं कर्मपदमस्ति प्राप्स्यामि
तत्र कुत्रापि सः शुभ किमपि न पश्यति पश्यत् इत्युक्ते चिन्तितवान् अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति.
एतस्य तत्र सर्वत्र विनाशस्य सर्वस्य विनाशस्य कारणम् अपि तत्र भीष्मस्य अपि दुर्दशायाः कारणं सः एव इति चिन्तयित्वा सः चिन्तयति अस्तु एतद् अहं सर्वं कृतवान् चेत् तत्र कीदृशीं दुर्गतिं प्राप्स्यामि अग्रे किं भविष्यति इति अहं न जानामि. समीचीनं
प्रश्नः तु नास्ति किन्तु चिन्तितवान्.
हा सत्यं सत्यं भगिनि. हा बहु समीचीनं. हा धन्यवादः भगिनि.
धन्यवादः महोदय.
हा अस्तु समीचीनम् अस्तु अग्रे तत्र नरेश महोदय अग्रे किञ्चित् पठति वा महोदय.
महोदय तदा तं सान्त्वयन् भीष्मः अवदत् भीष्मः सान्त्वयन् शत्यन्तरूपं तं सान्त्वयन् युधिष्ठिरं सान्त्वयन् भीष्मः उक्तवान्
किमर्थं तत्र शत्रन्त अस्ति.
एकस्मिन् समये सः अवदत् अपि सान्त्वना दत्तवान्.
हा तत्र सान्त्वनं कर्तुम् इष्टवान् तत्र अतः सान्त्वयन् तत् कर्तुं तत्र अवदत् अतः तत्र क्रियाद्वयमस्ति. समीचीनं महोदय.
वत्स अस्य सर्वस्य कारणं त्वं नैव भीष्मः अवदत् युधिष्ठिरम् अवदत् त्वं सर्वस्य विनाशस्य कारणं न.
हा त्वं न एतस्य अस्य इति स्थाने एतस्य एतस्य सर्वस्य
कारणं त्वं न.
एव इत्युक्ते तत्र संशयः नास्ति. भवान् तत्र त्वं त्यजतु तत्र त्वं कारणमिति चिन्तनं त्यजतु. त्वं नैव त्वं कारणं नैव एम्फसिस् इति वदामः खलु तत्र अतः तत्र त्वं नैव अतः तादृशचिन्तनम् अलम् अलं चिन्तनेन इति. हा
हा इमे ते बान्धवाः स्वस्य स्वस्य पुरातत्वस्य कर्मणः फलम् अनुभवन्ति. मृतानामस्य कर्मणः आसन् स्वस्य स्वस्य पृथकः तस्य कर्मणः.
महोदय एतत् कुर्मः तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये.
अनुभवन्ति
अनुभवन्ति अस्तु के अनुभवन्ति कर्तृपदं किम्
इमे
इमे
ते बान्धवाः.
हा इमे ते बान्धवाः इति तत्र बान्धवाः अनुभवन्ति विशेषणं तत् अन्यत् सर्वं तत्र विशेषणम् इमे ते इमे ते बान्धवाः
अनुभवन्ति.
तत्र ते इति अस्ति तत्र ते इति इत्युक्ते इमे ते
बहुवचनम्
कस्य
बान्धवाः
इमे इमे इति तु अयम् इमौ इमे इति अस्ति. अत्र अयम् इति आसीत् पूर्वम् इदानीं तत्र अस्य इति अपि दृष्टवन्तः इदानीं तत्र इमे इमे इति अस्ति. इमे थे बान्धवाः इमे इत्युक्ते तत्र प्रायशः समीपम् अस्ति इति मन्ये. तत्र थे इत्युक्ते तदनन्तरं बान्धवाः इति अस्ति तत्र अत्र अतः बान्धवाः अस्ति चेत् तत्र प्रश्नः कः भवति? किं भगिनि?
कीदृशबान्धवाः?
कीदृशबान्धवाः? सत्यं हा, तत्र विशेषणम् अपेक्षितमस्ति, किन्तु यदि कोऽपि वदति एषः मम बान्धवः,
द्वयमपि विशेषणमस्ति.
विशेषणं सत्यं भगिनि, हा, किन्तु ते इति पदस्य अर्थः कः?
मरणाः,
मृताः इति वा?
मृताः,
किन्तु ते इति पदं प्रायश मृतान् जनान् सूचयति ते इति पदं, किन्तु तत्र ते इत्युक्ते साक्षात् किम् अस्ति? तत्र सर्वनामशब्दः इति दत्तमस्ति.
सः तौ ते
इति अस्तु इति अस्तु, किन्तु तत्र इमे ते बान्धवाः अस्तु, तस्मिन् विषये किञ्चित् अग्रे चिन्तयामः. अस्तु, इमे ते बान्धवाः, हा अस्तु. नरेश् महोदय अग्रे.
स्वस्य पुराकृतस्य कर्मणः फल अनुभवन्ति.
इदानीं तत्र सरलरीत्या वदामः, तत्र बान्धवाः इति कर्तृपदम्, अनुभवन्ति इति क्रियापदम् इति स्वीकुर्मः, केवलम् एकमेव पदं कर्मपदम् अस्ति चेत् किं भवति कर्मपदम्?
फलं.
फलं, बान्धवाः फलम् अनुभवन्ति. इदानीं कीदृशफलम् अथवा कस्य फलं?
कर्मणः
फलं. कर्मणः फलं, षष्टि, समीचीनं महोदय. कर्मणः फलं षष्टि. तत्र कीदृशकर्मणः इत्युक्ते?
पुराकृतस्य कर्मणः.
पुराकृतस्य, तत्र पुराकृतस्य कर्मणः इति तस्य पदद्वयं स्वीकृत्य प्रथमाविभक्ति एकवचनरूपं किं भवति?
पुराकृतः
कर्म इति अस्ति.
पुराकृतं
कर्म इति नपुंसकलिङ्गपदं खलु? कर्म इति एव.
कर्म
कर्मणि कर्माणि, पुराकृतम्. अतः प्रथमविभक्तिरूपं किं भवति? पुराकृतं.
पुराकृतं कर्म.
कर्म, पुराकृतं कर्म. तस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति. इदानीं तत्र पुराकृतस्य इत्युक्ते किं? पुराकृतम् इत्युक्ते पूर्वं कृतं, पूर्वकाले कृतं. पूर्वकाले कृतं कर्म यत् अस्ति तस्य कर्मणः फलम् अनुभवन्ति. कः कृतवान् तत्र? कस्य?
बान्धवाः.
बान्धवाः, किन्तु तस्य पुराकृतस्य पूर्व इति पदात् पूर्वं किम् अस्ति?
स्वस्य
पुराकृतस्य कर्मणः फलम् अनुभवन्ति. तत्र एष एकः पुरुषः अस्ति, सः किमपि कर्म करोति इति कृत्वा तस्य फलम् अन्यः पुरुषः न अनुभवति खलु? अतः तत्र स्वस्य पुराकृतस्य वदतु महोदय. यः कृतवान् सः एव, यः पूर्वं कर्म कृतवान् सः एव इदानीं तस्य कर्मणः फलम् अनुभवति. समीचीनं.
इमे ते, अहं चिन्तयामि, इमे मृतशरीराः, ते बान्धवाः गतः बान्धवाः
हा सत्यं 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 हा 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 तेषां विषये एव तत्र इदानीं सम्भाषणं भवति. सत्यं भगिनि, हा तत्र किमर्थं ते मृताः इति भीष्मः वदति खलु. तदेव वक्तुम् इच्छति खलु भगिनि.
इमे समीपे मृतशरीरं समीपे अस्ति, बान्धवाः दूरे अस्ति.
न, शरीरे नास्ति. इमे इति इमानि शरीराणि भवन्ति खलु, अतः इमे ते इति बान्धवानामेव अस्ति. दूरे समीपे ये बान्धवाः सन्ति तेषाम् इति अहं चिन्तयामि. इमानि शरीराणि तद् भवति, तद् इमे शरीराणि इति न भवति खलु.
हा तत्र केवलं तत्र केवलं शरीरः शरीरस्य विषयं नास्ति, किन्तु यः तस्मिन् शरीरे आसीत् तस्य विषयः खलु.
मृतशरीरं
हा मृत यः मृतः तस्य शरीरम् इदानीं पश्यामः, किन्तु तस्य सः एव कर्ता आसीत् पूर्वं. सः कृतकर्मण कृतकर्म यत् अस्ति तस्य फलम् अनुभूतवान्, अतः सः मृतः इति तत्र भीष्मः वदति. अस्तु अग्रे महोदय.
किन्तु युधिष्ठिरः समाहितः न अभवत्.
समाहितः इत्युक्ते
सन्तुष्टः.
तस्य समाधानं नासीत्, अतः सः समाहितः न अभवत्. एतेन वचनेन सः समाहितः न अभवत्. सः तस्य दुःखम् इदानीमपि अस्ति, सः इदानीमपि दुःखितः अस्ति. अतः
तं पुनरपि बोधयन् भीष्मः तस्य निर्दशन रूपेण
निदर्शनरूपेण
रूपेण इमां कथां श्रावितवान्.
हा इमाम् इमाम् इति तत्र पूर्वं दृष्टवन्तः, तत्र अस्याः दुर्दशायाः इति षष्टि, इदानीं इमाम् इति द्वितीयविभक्ति. हा इमां कथां श्रावितवान्, तत्र इमां कथां श्रावितवान् इति अस्ति, तत्र अग्रे कथा भवति. ताम् एताम् इमाम् इत्युक्ते एताम् एतां कथां श्रावितवान्. श्रावितवान् इत्युक्ते सः शृणोति वा न, श्रावयति अथवा श्रावितवान्. श्रावितवान् कथां श्रावितवान्, किमर्थं श्रावितवान्?
युधिष्ठिरस्य बोधनम्
बोधनं बोधनं हा तस् तं बोधयितुं तं बोधयितुं तं बोधयितुं भीष्मः तत्र तत्र बोधयन् इति शत्रन्तरूपमेव स्वीकृतमस्ति. बोधयन् पूर्वं तत्र सान्त्वयन्, अत्रापि बोधयन्. इदानीं तत्र तस्य इति अस्ति, तस्य निदर्शनरूपेण निदर्शनरूपेण तस्य निदर्शनरूपेण. तस्य इत्युक्ते कस्य? रघुवीरनाथस्वामी नमस्कारः.
युधिष्ठिरस्य
नमस्कारः महोदय. पुटसङ्ख्या अस्ति 49 गीतासोपान द्वितीयभागे. अस्तु नरेश महोदय वदतु कस्य?
युधिष्ठिरस्य
निदर्शनं. निदर्शनम् इत्युक्ते उदाहरणम् अथवा एतद् वक्तुम् इच्छामि. अस्तु तत्र युधिष्ठिरः न अवगतवान्, अस्तु किञ्चित् अधिकं वदामि, तत्र कथां वदामि, कथया किम् इति भवान् अवगन्तुं शक्नोति इति, अतः निदर्शनं.
भीष्मस्य निदर्शनम् अस्ति.
न न तस्य तस्य निदर्शनरूपेण तत्र तस्य इति
कर्मण.
हा यत् वाक्यं यत् वाक्यं भीष्मः उक्तवान् स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति यद् वाक्यम् उक्तवान् तस्य वाक्यस्य निदर्शनं एतया कथया भवति. एता एषा कथा तं तत् वाक्यं निर्दिशति अथवा तस्य निदर्शनं करोति. तस्य निदर्शनं तस्य वाक्यस्य निदर्शनं करोति. अतः तस्य इत्युक्ते वाक्यस्य, यत् वाक्यं भीष्मः उक्तवान् तस्य वाक्यस्य निदर्शनं, निदर्शनरूपेण इमां कथां श्रावितवान् श्रावितवान्. समीचीनं महोदय. किञ्चित् अग्रे अपि
पुरा गौतमी नाम काचित् तपस्विनी महिला आसीत्. पुरा कस्मिन् समये तत्र गौतमी नाम तपस्विनी आसीत्.
गौतमी नाम तपस्विनी आसीत्. अतः तत्र काचित्
काचित्
योगः चित् काचन अथवा काचित् समानार्थकः काचित् काचित् तपस्विनी महिला, तस्य नाम तस्याः नाम गौतमी. समीचीनं.
तस्याः अतिप्रियः एकः एव पुत्रः. तस्य एकः पुत्रः आसीत्. त्रः ताम् अतिप्रियः आसीत्.
तस्याः अतिप्रियः एकः एव पुत्रः, सः पुत्रः अतिप्रियः. अतिप्रियः तत्र पुत्रद्वयमस्ति चेत् वक्तुं शक्नुमः अस्तु एषः पुत्रः प्रियः पुत्रः, अन्यः प्रियः नास्ति इति. किन्तु अत्र किमस्ति, एकः एव पुत्रः, सः केवलं प्रियः न अतिप्रियः, तस्याः अतिप्रियः पुत्रः, एकः एव पुत्रः. अग्रे.
कदाचित् कश्चन सर्पः तं पुत्रम् अदशत्. कदाचित् कश्चन सर्पः तं पुत्रम् अदशत्.
अदशत् इत्युक्ते मारितवान्, तस्य मरणं कारितवान्.
तेन सः बालः अचेतनः जातः. सर्पम् अदशन् बालः अचेतनः जातः.
तत्र अदशत् इति तत्र प्रायश लट्लकाररूपं किं
दंशनं दशति. दंशनं तत्
तस्य पठनम् इति रूपेण तत्र
तत् इत् इञ्जेक्स् धनं न किमस्ति बैट्
सत्यं सत्यं. अतः तेन इत्युक्ते तेन इत्युक्ते
दशनेन
तादृशं रैट् तत्र.
सः न मृतवान् परन्तु
न सः मृतवान् सः मृतवान् अचेतनः इत्युक्ते तत्र सः मृत तत्र बालः पुत्रः इदानीं तस्य मृत्युः सः मृतः.
चेतनः नास्ति इदानीं, मृतः एव मरणं प्राप्तवान्.
अग्रे अग्रेपि पश्यामः तत्र सः मृतः इति अग्रे पठामः सः एव अर्थः अत्र. सूर्यकुमारी भगिनी प्रश्नः अस्ति वा?
अचेतनः अतः स्पृह नास्ति.
तस्य तस्मिन् चेतना नास्ति. सत्यम्.
अर्जुनः नाम व्याधः एतद् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्। तत्र एकः व्याधः आसीत्, सः दृष्टवान् सर्पं, सर्पः तं बालं अदर्शत्। सः सर्पं
तस्य बन्धनं कृत्वा सर्पस्य
गौतम्याः समीपम् आनीतवान्।
किम् आनीतवान् अथवा कम् आनीतवान्?
सर्पं,
सर्पं, तं सर्पम् आनीतवान्। अतः तत्र आनीतवान् इति आनयति इति क्रिया अस्ति, तस्य कर्मपदमस्ति तं सर्पम्। तं सर्पं कः? व्याधः। व्याधः अर्जुनकः नाम व्याधः आनीतवान् तं सर्पम् आनीतवान्। कस्याः समीपम् आनीतवान्? गौतम्याः समीपम्
आनीतवान्।
केन सः तत्र बन्धनं कृतवान्, सर्पस्य बन्धनं कृतवान्?
स्नायुपाशेन।
हा, तत्र पाशं, तत्र स्नायुपाशं, तत्र चित्रे अस्ति, तत्र तदेव अस्ति, स्नायुपाशेन बन्धनम्। अतः तत्र स्नायुपाशेन बन्धनं कृत्वा सः व्याधः तं सर्पं, यत् यः सर्पः पुत्रं मारितवान् तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्। हा, अग्रे
उक्तवान् च, मातः अयं दृष्टः, अयं दुष्टसर्पः तव पुत्रम् अमारयत्।
हा, अयम्, अयं पुनः तत्र अयम् इति पूर्वमपि दृष्टवन्तः, अयम्, अयम् इत्युक्ते एषः, एषः दुष्टसर्पः
तव पुत्रम् अमारयत्, तव
अमारयत्,
अमारयत्,
मारयति अथवा अमारयत् इति स्थाने मारितवान् इति अपि, अमारयत् साक्षात् क्रियापदमस्ति, अमारयत् विशेषणं क्रियासूचकम् अस्ति, मारितवान् इति पुत्रं मारितवान् अमारयत्। तत्र यथा रघुपतिमहोदय उक्तवान् तत्र अदशत् इति अस्ति, किन्तु तत्र धंसति इति एव, महोदय तत्र अदशत् इति अस्ति, तत्र अधंसत् इति वा?
दंश धातु अस्ति,
दंश इति धातु,
आमाम्,
अतः तत्र दशत् इति नास्ति, अधंसत् दश अस्ति इति मन्ये,
तत्र
किन्तु केवलं दश इति अपि अस्ति वा? दश इति
न, दंश एव,
दंश एव, अस्तु,
दंश,
हा, अतः दंशनं, दंशनम् इति एव प्रायशः तत्र ल्युडन्त रूपं भवति इति, पठनम् इति तादृशरूपं दंशनम् इति प्रायशः, अथवा दशनं वा, तत्र
दंश इति अस्ति, दंश इति रूप एकवारं तु
दशति,
दंश इति अस्ति,
दंश तु औपदेशिकरूपम् अस्ति, किन्तु
दंशति इति अस्ति, दंशति एकमस्ति अत्र दंशति इति अस्ति,
अदशत् इति एव अस्ति
वा?
तद् भिन्नभिन्न अस्ति महोदय।
अस्तु 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 अस्तु, तर्हि अतः तत्र बैट् महोदय,
अदंशत् नास्ति, अदशत् अस्ति,
अदशत् इति दत्तम् अष्टाध्यायी मध्ये दत्तम्, अदशत्, अदशताम्, अदशन्, अदशः, अदशतम्, अदशत,
तत्र धातु किमस्ति, धातु कः भगिनि?
दंश, दंशं, दंशम् इति दंश,
अदंशत् इति अस्ति, अदंशत् अपि अस्ति, अहम् अदशत् ये श्रुतवान् आसीत् पूर्वम्, इदानीं पश्यन् अस्मि अदंशत् अपि अस्ति.
अतः अदंशत्
दातु अस्ति. एकं तु एकं तु चुराजिगणे अस्ति, एकं तु अदादि भवादिगणे अस्ति, दंस् इति अस्ति.
ओ अस्तु अस्तु अस्तु. अतः
तदेव अर्थे अस्ति टु बैट् इति. दंस् इति अस्ति, सकार अस्ति, दन्तसकार अस्ति. एकं तु दंश् इति अस्ति, चकार अस्ति.
अस्तु, किन्तु तत्र धम् किन्तु तत्र
धम् एव अस्ति, विसर् अनुस्वार एव अस्ति सर्वत्र. अनुस्वार अस्ति. अदशत् इति अहं श्रुतवान् आसीत् पूर्वम्, अहं चिन्तितवान् अदशत् इति, परन्तु अत्र न
भगिनि.
तत्र संख्या का भगिनि, तत्र धातोः संख्या?
जीरो वन्
वन् वन् फोर् फोर्. अस्तु भगिनि, एकनिमिषः.
तत्र
जीरो वन् 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 फोर्
फोर् फोर्
1144.
सत्यं भगिनि, दशति तदेव.
समीचीनं, धन्यवादः भगिनि. अस्तु, अदशत् इति इदानीं समीचीनं.
महोदय, लैक् इत्युक्ते लट् लकार अस्ति इति दंश्यति, तत्र तु
न न, इदानीं दशति इति एव, लट् लकारे दशति एव.
इदानीं तु दशत्, किन्तु लुट् अस्ति तु दंष्टु दंष्टा दंश, किन्तु लट् अपि लङ्
अत्र सार्धातुके आर्धातुके प्रत्यये परे तत्र नुमागमः भवति, अन्यत्र न भवति इति. इदित् धातुः अस्ति अतः अनुदितम्
समीचीनं भगिनि. न, इदानीं समीचीनम्. अहं तत्र अन्यः धातुः यः अस्ति तां दृष्ट्वा अहं चिन्ता कुलः आसीत्. इदानीं इदानीं एतत् समीचीनम् अस्ति, धंश् इति.
दशति अहं श्रुतवान् आसीत्, दशति अदशति.
अतः समीचीनमेव, अतः मुद्रणदोषः नास्ति. अतः दशनम् इति, दशनम् इति प्रायशः समीचीनमेव अस्ति इति.
दशनम्
दशनम्. अतः दशनेन
मया न अवगतं महोदय,
किं
किं कः धातुः अत्र, दस् अथवा दन्?
धंशिति, धंशिति धातु भगिनि तत्र. किन्तु अष्टाध्यायी मध्ये तत्र एकनिमिष तत्र कोऽपि प्रेषितवान् वा? गीताञ्जलि भगिनि प्रेषितवती. अस्तु, अस्तु. अतः तत्र अदशत् समीचीनम्, अदशत् समीचीनमेव, अदशत् समीचीनमेव. गीताञ्जलि भगिनी धन्यवादः. तत्र क्लेशः आसीत् मम मनसि. अस्तु, समीचीनं. अस्तु, अतः तत्र इदानीं तत्र दुष्टसर्पः तव पुत्रम् अमारयत्.
अमारयत् किमहम् एतम् अग्नौ क्षिपाणि उत खण्डशः सर्वाणि.
तत्र क्षिपाणि इति अस्ति, क्षिपाणि इति रूपं लकारः कः?
लट् लकार उत्तमपुरुषः.
न, लट् लकार नास्ति खलु,
लोट् लकार.
लोट् लकारः उत्तमपुरुषः. समीचीनं. तत्र सः पृच्छति, अहं किं करवाणि, किं कर्तुम् इच्छति भवति, अनुमतिं ददातु. तत्र किं करणीयं, मया किं करणीयम् इति. अतः क्षिपाणि, तत्र एतम्, एतम् इत्युक्ते कं?
सर्पम्.
एतं सर्पं कुत्र क्षिपाणि?
अग्नौ.
अग्नौ क्षिपाणि, अग्नौ क्षिपाणि. उत, उत इत्युक्ते अथवा,
अथवा खण्डशः करवाणि.
खण्डशः करवाणि इत्युक्ते खण्डशः, खण्डशः. समीचीनं. तत्र खण्डशः सर्पं स्वीकृत्य तं खण्डशः करवाणि वा इति. अतः अथवा
वद, अन्येन केन प्रकारेण एनं दण्डयामि
एनम् इति तदपि इदानीं तत्र अग्रे भवति तत्र एनम् इति तत्र हा सर्पम् एनम् एतम् एतम् इति तत्र अर्थे एतं सर्पं दण्डयानि अहं विदा तत्र विधद्वयं तत्र अहं क्षिपानि वा अथवा खण्डशः कर्वाणि वा इति उक्तवान् किन्तु तद् यदि भवती न स्वीकरोति भवती वदतु अन्य अन्य किं करणीयम् इति अन्यत् किं करणीयम् इति भवती वद अहं तम् अनुसरामि तत् अनुसरामि तत्र अन्येन केन प्रकारेण ये दण्डयानि इति समीचीनं महोदय धन्यवादः
महोदय अत्र दंशिति चुरादिगणे अपि अस्ति अत्र दंशति इति तदेव बैट् ट्विस्टिङ्ग् इति
अतः अतः समानार्थकधातुद्वयं
धातुद्वयम् अस्ति अतः दशति अपि अस्ति दंशति इति यद्यपि अत्र नकार अस्ति तत् केन सूत्रे विशेषसूत्रेण नकारस्य लोपः भवति शाप्रत्ययपरे परन्तु अत्र दंशति इति अस्ति चुरादिगणे भिन्नधातुः अस्ति तदपि समीचीनमेव दंशति अदंशत् अपि भवितुमर्हति अदंशत्
अदंशत् अपि अदशत्
द्वयमपि समीचीनम्
समानार्थकः इति
समानार्थकः अपि अतः एव क्लेशः
महोदय मम एकः संशयः प्रथमपरिच्छेदे महोदय तत्र अस्य सर्वस्य विनाशस्य कारणं तत्र अनन्तरं भवतः अस्याः दुर्दशायाः महोदय तत् भीष्मं प्रति उक्तं तत् दुर्दशः इत्यपि अस्ति भवतः अस्य दुर्दशः इति किमपि किमर्थं न दत्तम् अस्याः दुर्दशायाः इति
स्त्रीलिङ्गं
स्त्रीलिङ्गं स्वीकृतमस्ति महोदय दुर्दशा दशा इति
दुर्दशः नास्ति वा महोदय
दुर्दशा
स्त्रीलिङ्गे एव अस्ति दुर्दशः इति नास्ति अहं चिन्तयामि
दुर्दशा दुर्दशा दशा इति एव अस्ति महोदय
दशा
अतः तत्र अतः तत्र अस्याः इति तत्र यद्यपि तत्र अत्र तु किं केवलं तत्र पुल्लिङ्ग अपि नपुंसकलिङ्गरूपाणि एव अग्रे दत्तवन्तः अग्रिमे अध्याये एव तत्र स्त्रीलिङ्गसर्वनामशब्दाः इति भवति किन्तु तत्र अस्याः इति अत्र एव दत्तवन्तः किन्तु स्त्रीलिङ्गे अस्ति महोदय तत्र
महोदय यथा आशा अस्ति तथा दुर्दशाया
हा सत्यं सत्यं भगिनि आशा स्त्रीलिङ्गे एव सत्यं दशा
स्त्रीलिङ्गं स्वीकुर्मः चेत् तर्हि तत् समीचीनमेव किन्तु
नास्ति
पुल्लिङ्गः नास्ति एव वा
नास्ति दशा इति दशा एव भवति दंशदातुतः एव अस्ति दंशनेन दुर्दशा भवति
सत्यं तदपि सत्यं किन्तु स्त्रीलिङ्गरूपमेव अस्ति रघुवीरानन्दस्वामी अतः तत्र स्त्रीलिङ्गरूपं स्थापितं किन्तु इदानीम् अस्मिन् अध्याये तत्र आधिक्येन तत्र पुल्लिङ्गरूपाणाम् एव तत्र चर्चा भवति इति मन्ये
महोदय अत्र एनम् इति अस्ति अन्येन केन प्रकारेण एनं दण्डयानि
एतम् इति अर्थे तदपि नूतनपदं भवति तत्र तु तद् इदं पदं नास्ति तद् अन्यत् पदं भवति पश्यामः तदपि अस्ति अतः तत्र पदद्वयं नूतनपदद्वयम् अस्ति किं भगिनि समानं
समानं परन्तु तस्य प्रातिपदिकं किं
पश्यं पश्यामः भगिनि पश्यामः
इदम् इत्यस्य न भवति वा एनम् एनम् इति भवति अत्र इदम् इति नपुंसकलिङ्गे एनम् इति भवति एनमि द्वितीय
पश्यामः किन्तु तत्र एनम् इति प्रायशः अत्र सर्पम् एव इति अस्ति इति अतः
पुल्लिङ्गरूपमेव
अस्ति पश्यामः अग्रे पश्यामः किं भवति इति अस्तु समीचीनं नरेश् महोदय धन्यवादः इदानीं तत्र अग्रे किं सूर्यकुमारी भगिनी किञ्चित् वदति वा अग्रे
महोदय
तदा गौतमी इति
तदा गौतमी अवदत् हे सौम्य त्यज इमं सर्पं त्यज इमं सर्पं यतः अस्मिन् सर्पे मारितेऽपि मृतः मम पुत्रः जीवितः न भविष्यति इति गौतमी अवदत् इमं सर्पं त्यज अस्मिन् सर्पे मारितेऽपि मृतः मम पुत्रः जीवितः न भविष्यति तदर्थं सर्पं
अस्तु अस्तु भगिनि तत्र अस्तु अस्तु एतत् कुर्मः त्यज इमं सर्पम् अतः तत्र एतं सर्पं त्यजतु त्यजतु अथवा त्वं त्यज मध्यमपुरुषे अस्ति त्वं त्यज अथवा भवान् त्यजतु मध्यमपुरुषे अस्ति इति कृत्वा त्वं त्यज इमं सर्पम् एतं सर्पं त्वं त्यज किमर्थं त्यज यतः इदानीं कारणं
खलु
यतः इत्युक्ते कारणं यतः अस्मिन् सर्पे मारिते अपि तत्र नूतनरूपम् अस्ति प्रायशः भवती न दृष्टवती पूर्वम् इति मन्ये तत्र सतिसप्तमी इति
सर्पे मारिते अपि
अतः तत्र सप्तमी अस्ति सप्तमी अस्ति चेत् अत्र कः अर्थः तत्र यदि इति अर्थे अस्ति भगिनि तावदेव यदि यदि एषः सर्पः मारितः अपि
मम पुत्रः
तर्हि मम पुत्रः जीवितः न भविष्यति यदि एषः सर्पः मारितः अपि भवति तर्हि मम तर्हि अपि मम मृतः मम पुत्रः जीवितः न भविष्यति तत्र यदि इति अर्थे यदि इति स्थाने किं कुर्मः तत्र यदि अनन्तरं यद्वाक्यं भवति तस्य सप्तमी रूपं स्वीकुर्मः तावदेव अतः एषः सर्पः मारितः इति स्थाने अस्मिन् सर्पे मारिते अपि मृतः मम पुत्रः जीवितः न भविष्यति तत्र कोऽपि लाभः नास्ति यदि सर्पस्य दण्डनं कुर्मः ततः कः लाभः कोऽपि लाभः नास्ति मम पुत्रः तु सः मृतः सः तु जीवितः न भविष्यति इति सः वदति सा अवदत् अग्रे
किन्तु
गौतमी तत् व्याधं हे सौम्य इति किमर्थं वदति किमर्थं सम्बोधयति सौम्य इत्युक्ते व्याधः वा
अत्र व्याधः इति तत्र विशेषार्थः अस्ति न वा इति न जानामि भगिनि समीचीनप्रश्नः एव
प्रिया इति अर्थे
हा प्रायशः अथवा
सौम्य सौम्य इति सौम्य खलु सौम्य इत्युक्ते साफ्ट् कन्नड
अथवा तत्र सौम्य भवतु इति भवतु तत्र
इदानीं सर्पम् इदानीं सर्पम् इदानीं तस्य बन्धनं कृत्वा आनयति खलु तस्य सहायं करोति तस्याः सहायं करोति खलु
सत्यं
अतः सौम्य इति चिन्तयति अतः यः सहायकः भवति सः सौम्यः भवति खलु
अस्माकं
सहायं करोति तस्मिन् अर्थे अहं चिन्तयामि सौम्य
समीचीनम् एव अस्तु धन्यवादः महोदय
किन्तु रागः तत्
अनङ्गीकुर्वन्
पुनः पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत व्याधः न अङ्गीकृतवान् पुनः पुनः
तत्र व्याधः तत् अनङ्गीकुर्वन् इत्युक्ते किं
न अङ्गीकृतवान्
तत् न अङ्गीकृतवान् तत् इत्युक्ते किं
गौतम्याः
वाक्यं तत् न अङ्गीकृतवान् अथवा गौतम्याः चिन्तनं न अङ्गीकृतवान् किन्तु तत्र अनङ्गीकुर्वन् इति अस्ति तत्र रूपं कीदृशम् अस्ति शत्रन्तरूपं तत्र अनङ्गीकुर्वन् सः कः व्याधः सः किं कृतवान् पुनः पुनः
मारयितुं
सर्पं मारयितुम्
अनुमतिं
अयाचत अयाचत तत्र
याचितवान्
अनुमतिं याचितवान् तत्र कस्याः अनुमतिं
गौतम्याः
अनुमतिं याचितवान् समीचीनं
गौतमी तु तस्मै अनुमतिं न अददात् गौतमी अपि
गौतमी तु इत्युक्ते सः बहुवारं पृष्टवान् केवलम् एकवारं पृष्टवान् वा अनुमतिं
न पुनः पुनः
हा पुनः पुनः इति अस्ति अतः तत्र अनेकवारं वारं वारं सः एतस्य सर्पस्य एतं सर्पं मारयामि अनुमतिं ददातु इति बहुवारं पृष्टवान् किन्तु गौतमी किं कृतवती
सा अपि पुनः पुनः अङ्गीकृतं न
अनङ्गी सा अनुमतिं न दत्तवती तत्र किमर्थं तस्मै इति अस्ति कस्मै
तस्मै व्याधाय
सा अनुमतिं न दत्तवती समीचीनं अग्रे
गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्
तत्र सर्पः किं कृतवान्
मनुष्यभाषेन
उक्तवान् किं कृत्वा
सम्भाषणं श्रुत्वा
कयोः सम्भाषणं श्रुत्वा
व्याधस्य गौतम्याः सम्भाषणं श्रुत्वा
इदानीं तत्र गौतमी व्याधयोः इति अस्ति तत्र व्याध गौतमी इति रूपं भवति चेत् तत्र किं भवति
गौतम्याभ्यां
न तत्र प्रथम इदानीं तत्र गौतमी प्रथमतया अस्ति अनन्तरं व्याधः अस्ति किन्तु व्याधः प्रथम
अधस्य
किन्तु भिन्न तत्र पृथक् मास्तु द्विवचने यदि वक्तुम् इच्छामश्चेत् किं भवति
गौतम्योः
हा नदी नद्योः गौतमी गौतम्योः व्याद गौतम्योः समीचीनं भगिनि हा व्याद गौतम्योः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत् उक्तवान् हा किम् उक्तवान्
हे अर्जुनकः
अर्जुनकः कः अत्र
अर्जुनकः व्याधः
व्याधः हा हे व्याध
अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः
हा
सर्पः अवदत् व्याधाय
व्याधं दृष्ट्वा अथवा व्याधं प्रति उक्तवान् सर्पः उक्तवान् किम् उक्तवान्
अहं मम न कोऽपि दोषः अस्ति बालम् अदशम्
अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः सत्यम् अस्ति अहमेव बालस्य दर्शनं कृतवान् अहमेव बालम् अदशम् किन्तु तत्र मम कोऽपि दोषः नास्ति किमर्थम् अग्रे वदति किं वदति
बलात् बलात् मया इदं कार्यं कृतम्
इति हा मृत्योः इति विभक्ति का तत्र
षष्ठी एकवचनं
हा मृत्युः मृत्योः बलात् 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 इति किमस्ति
मृत्योः बलात्
बलात् इति किमस्ति बलात् विभक्ति का तत्र
बलात् पञ्चमी एकवचनं
हा पञ्चमी कारणं कस्मात् कारणात् बलात् मृत्योः बलात् एव
इदं कार्यं कृतम्
हा एतत् कार्यं किं तत्र अदश हा तस्य दर्शनं तस्य दर्शनं मया कृतं किन्तु कस्मात् कारणात् मृत्योः बलात् एव एव मया एतत् कार्यं कृतम् इति समीचीनं भगिनि अस्तु अस्तु अग्रे शुभदा भगिनि
तदा व्याधः अवदत् तथापि अस्य बालस्य दशनं तु त्वया एव कृतम् अतः त्वं वध्यः एव तदा व्याधः प्रत्युत्तरं अकरोत् तथापि परन्तु
तत्र सर्पः वदति तत्र मम दोषः कोऽपि नास्ति तत्र मृत्योः बलात् एव अतः मृत्युः एव तत्र तस्य एव दोषः अस्ति इति सः वदति अतः व्याधः वदति तथापि तद्भवतु किन्तु
तद्भवतु परन्तु किन्तु अस्य बालस्य दशनं तु त्वया एव कृतं त्वमेव बालस्य दशनस्य कृते त्वमेव
कारणं त्वमेव कारणं तस्य 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 दशनस्य कारणं त्वमेव अस्ति
अतः
त्वमेव असि त्वमेव असि क्षम्यतां त्वमेव असि
त्वमेव असि
हा त्वमेव असि
अतः त्वं वध्यः एव अतः त्वं
वध्यः वध्यः एव इत्युक्ते तत्र
वदार्हः इति
वदार्हः वदार्हः तत्र तव वधनं करणीयम् इति तत्र तत्र अर्हति त्वम् अर्हसि
पनिशेबल् इत्युक्ते किं वदामः महोदय
किं भगिनि
पनिशेबल्
तत्र एव तत्र हा पनिशेबल् तत्र
दण्ड्यः अथवा
दण्ड्यः
इति भवति
व्याधः सर्पं वदति त्वमेव दण्डनीयः त्वमेव कारणमस्ति बालस्य मृत्योः कृते अतः त्वमेव दण्डनीयः त्वमेव वध्यः इति सर्पः अवदत् अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अभवम् मम तु दोषः नास्ति मृत्योः प्रेरणया
तत्र पूर्वम् उक्तवान् तत्र मृत्योः बलात् इदानीं मृत्योः प्रेरणया इति तृतीया कारणतृतीया पूर्वं कारणपञ्चमी इदानीं कारणतृतीया मृत्योः प्रेरणया एव
अस्य बालस्य हनने कर्ता अभवम् अस्य बालस्य मृत्योः कारणम् अहं कारणम् अभवम्
अहं कारणम् अस्मि किन्तु केन तत्र केवलम् अहमेव कारणम् इति न वक्तुं शक्नुमः यतोहि मृत्योः प्रेरणया एव एतत् मया कृतम् एतत् मया कृतम् इति
एतत् मया कृतं वास्तविकं कारणं तु मृत्युः एव मृत्योः बलात् वा प्रेरणया वा एतत् सर्वं अभवत् अतः मृत्युः एव तस्य कारणं न तु अहम्
हा तत्र मृत्योः प्रेरणा नास्ति चेत् अहम् एतत् कार्यं मया न कृतं कृतम् आसीत् किन्तु प्रेरणा आसीत् अतः एतत् कार्यं मया कृतम् अतः मृत्योः प्रेरणया एतत् मृत्योः प्रेरणा एव कारणम् अतः मृत्युः एव कारणम् इति इति समीचीनम् अग्रे तत्र रघुवीरानन्दस्वामी किञ्चित् पठति वा तत्र भवान् विलम्बति आगतवान् किन्तु तत्र किञ्चित् भवान् अपि पठतु इति हा तावदेव भगिनि धन्यवादः भगिनि तदा मृत्युः एव
तदा मृत्युः एव तत्र उपस्थितः अभवत् अवदत्
इदानीं तत्र मृत्युः अपि तत्र आगतः अस्ति इदानीं मृत्युः तत्र रूपं स्वीकृत्य
मृत्युदेवता तत्र उपस्थितवान्
तत्र अस्ति उपस्थितः अस्ति मृत्युः अपि इदानीं
मृत्युदेवता सः अवदत् हे सर्प नात्राहं कारणं न वा त्वं कालः अत्र कारणं यतः तेन प्रेरितः अहं त्वां प्रेरितवान् यथा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च तेनैव कालेन जगत् इदं सृज्यते संह्रियते वा एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्यैव न तु मम इति
अतः तत्र मृत्युः किं वदति इदानीं तत्र
मृत्युदेवता अवदत् हे सर्प भवान् अपि न तु न कारणं न तु अहं कालः एव अत्र कारणम् अस्ति
हा तत्र पुत्रस्य मरणस्य कारणं कालः एव
बालस्य मरणस्य कारणं कालः किमर्थम् इत्युक्ते कालेन प्रेरितः एव अहं प्रेरितवान्
हा अहं कालेन प्रेरितः आसीत् अतः
अहं
त्वां प्रेरितवान् सर्पं प्रेरितवान्
उदाहरणार्थम् उपमाने आकाशे यथा वायुः मेघान् आकर्षयति विकर्षयति तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति
अभिकर्षति च तत्र आकाशे तत्र वायुः किं करोति मेघान् आकर्षति विकर्षति तत्र तेषां तत्र चालनं कारयति खलु चलनं कारयति तादृश तत्र आकर्षणं वा विकर्षणं वा कारयति तद्वदेव अत्र कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च अतः तेनैव कालेन तत्र केवलम् एतस्य बालस्य मृत्युः न किन्तु कालेन किं किं भवति
अन्यं लोकस्य
हा जगतिदं जगदिदं
जगतः
हा जगतः जन्म वा तत्र सृज्यते तद्भवति संम्रियते तत्र तत्सर्वं हा तत्र कालेन एव भवति
सृष्टिः वा लयं वा सर्वं कालेन भवति
भवति अतः एतादृशी परिस्थितिः अस्ति अतः एवं सति अस्यां स्थितौ एवं सति एवम् अस्ति चेत् अत्र
दोषः स्यात् तर्हि सः कालस्य एव
अत्र कोऽपि वदति तत्र दोषः अस्ति तत्र कस्य दोषः इति प्रश्नः अस्ति चेत् अस्यां स्थितौ उत्तरं किं भवति कालस्य एव दोषः न तु अन्य कोऽपि यः कोऽपि भवतु तस्य दोषः न भवितुम् अर्हति केवलं कालस्य एव दोषः भवितुम् अर्हति इति यतोहि स कालः एव तत्र सृष्टिः वा तत्र अथवा संहरणस्य वा तत्र सः एव कारणं सर्वस्य अतः सः एव कारणम् इति अस्तु तर्हि तत्र समयः अपि जातः किन्तु
नमो व्यास भगवान् महोदय
सत्यं सत्यं हा अस्तु अतः तत्र समीचीनम् इदानीं तत्र अग्रिमे सप्ताहे तत्र अग्रे किं भवति इति पश्यामः तत्र रघुवीरनन्दस्वामी भवान् एव तत्र अन्ते शान्तिमन्त्रं वदति वा
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः धन्यवादः
धन्यवादः महोदय.